एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः विघटनस्य विरूद्धे पञ्जीकारितानाम् आदेशाभियाचन निवेदनानाम् श्रवणम् सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे अद्यतः निरन्तरम् जायमानम् वर्तते। प्रधान न्यायाधीशेन चोरेन्द्र शमशेर जबरा इत्यनेन सहितानाम् न्यायाधीशानाम् हरिकृष्ण कार्किणः, विश्वम्भर प्रसाद श्रेष्ठस्य, अनिल कुमार सिंहाविदस्य, तेजबहादुर केसी इत्यस्य च अस्यैव पौषस्य दशमे दिवसे उपविष्टेन सांविधानिक न्यायपीठेन अद्यतो निरन्तरम् श्रवणम् विधातुम् दिनांकाः निर्धारिताः आसन्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड माधव समूहस्य अध्यक्षः माधव कुमार नेपालः सर्वोच्च न्यायालयेन संविधानस्य मूल भावनाम् आश्रित्य संविधानस्य उचित व्याख्या विधीयते इति विश्वसिति। जनता समाजवादी पार्टी नेपाल जसपा दलेन ह्य काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायाम् अध्यक्ष नेपालः अवोचत् गणतन्त्रम् संघीयताम् समावेशिताञ्च रक्षितुम् सर्वैः एकीभवनस्य बेला आगतास्ति। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः प्रतिनिधि सभायाः विघटनस्य निर्णयः जनतायाः वञ्चनकार्यम् वर्तते इति विचारम् व्यक्तवान्। समाजवादी पार्टी नेपाल जसपा दलस्य अध्यक्षः उपेन्द्र यादवः अभाषत प्रतिनिधि सभायाः विघटनेन नेपालस्य संविधाने संविधानवादे च क्षति प्राप्तास्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दले विवादस्य उत्पन्नस्य अनन्तरम् उद्भूताम् राजनीतिकावस्थाम् विचार्य निर्वाचनायोगेन निर्वाचन घोषणाम् अन्वपि संघीय संसदि प्रतिनिधित्व कुर्वताम् राजनीतिक दलानाम् अभ्यन्तरे सृष्टस्य विवादस्य निरूपणत्वेन दलसम्बद्धा नियमावली संशोधिता वर्तते। एतत्पूर्वम् राजनीतिक दलसम्बद्धायाम् नियमावल्याम् निर्वाचनस्य अवधौ दलानाम् आभ्यन्तरो विवाद न निरूपयिष्यते इति व्यवस्थासीत्। नियमावल्याम् एतत् प्रावधानस्य संशोधनेन विना नेकपा दलाभ्यन्तरस्य विवादस्य निरूपणाभावस्य, निर्वाचने गन्तुम् सामर्थ्याभावस्य च अवस्थायाः दृष्टेः अनन्तरम् आयोगेन नियमावली एषा संशोधितास्ति। उपप्रधानमन्त्री ईश्वर पोखरेलः वदति नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य एकतायाः दुर्बलीकारिभ्यो जनेभ्यो जनता कदापि क्षमां न ददाति। नेकपा दलस्य धनुषा जनपद शाखया ह्यो जनकपुर धामनी आयोजिते कार्यकर्तृ मेलने उपप्रधानमन्त्री पोखरेलः जनता विभाजनस्य पक्षे नास्तीति हेतोः दलैकतायाः विरूद्धे सक्रियान् दलसर्वकारयोः गतिहीन कारकांश्च जनान् दृढतया प्रतिकरोतीति विश्वासं व्यक्तवान्। काष्ठमण्डपोपत्यकायां वायु प्रदूषण वर्धनस्य कारणेन गृहात् बहिर्गमनस्य क्रमे विशेष सावधानताम् अवलम्बितुं वातावरण विभागेन अनुरुद्धं वर्तते। उपत्यकायां प्रातःकाले सायं च प्रदूषणस्य अत्यधिक वर्धनस्य कारणेन स्वास्थ्य प्रतिकूल प्रभावः सृज्यते इत्यतः बालबालिकाः, ज्येष्ठ नागरिकाः, श्वास प्रश्वासस्य, हृदयस्य च रोगिणश्च यथासम्भवं गृहात् बहिर्न निष्क्रान्तुम् अनुरुद्धः सन्तीति विभागस्य महानिर्देशकः मुकुन्द प्रसाद निरौला अज्ञापयत। जलवायु प्रणाल्यां सुधारस्य अभावं यावद् प्रदूषणम् एतादृशम् एव भवति इतोपि विकृततरं वा भविष्यतीति सम्भावनायाः कारणेन विशेष सावधानता अवलम्बनीयति महानिर्देशकः निरौला अवोचत। उपत्यकां विहाय तराई क्षेत्रस्य नेपालगंज विराटनगर प्रवृत्ति क्षेत्रेषु अपि वायु प्रदूषणस्य मात्रा उच्चैः अस्तीति हेतोः तराई क्षेत्रस्य नागरिकाश्च विशेष सावधानताम् अवलम्बितुं विभागेन अनुरुद्धाः सन्ति। अत्रान्तरे मुस्ताङ जनपदस्य लोमाङथाङ क्षेत्रे सघन हिमपात सम्भूतो वर्तते। सोमवासरस्य सायंकालत हिमपात प्रारब्ध इति लोमाङथाङ ग्रामपालिकाया अध्यक्ष सुवर्ण कुमार विष्ट अवोचत। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ प्रभावकारितया कार्यं कर्तुं विज्ञापन समितिं निर्दिशति। यः सिम्म प्रासादे आयोजिते समिते चतुर्थे पूर्णोपवेशे मन्त्री गुरूङ समितेः कार्याणां प्रभावकारितायाः सम्बन्धे विज्ञैः सह आवश्यकं विमृश्य रणनीतिक योजनायाः निर्माणे विलम्बं न कर्तुं समितिं सचेष्टाम् अकारयत्। कोरोना विषाणोः संक्रमणात् इह जना मुक्ता सन्ति। एतदनु ह्यस्तनावधि कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्षद्वयं पञ्चपञ्चाशत् सहस्राणि षट्षष्ट्यधिक षट्शतं च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्तेषु द्वाविंशत्यधिक पञ्चशते जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्यस्तनावधि आराष्टं कोरोना विषाणो पञ्चसहस्राणि पञ्चविंशत्यधिक शतद्वयं च सक्रिय संक्रान्ता जना सन्ति। कोरोना संक्रमणेन गतदिने अतिरिक्ता अष्टौ जना मृता। एतदनु नेपाले ह्यस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या सहस्रं त्रयोनवत्यधिकाष्टौ शतं च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। निर्वाचनायोगेन जनपदस्तरे मतदान स्थलानां मतदान केन्द्राणां च निर्धारण कार्यं श्वस्तन दिवसात् कर्ता। प्रमुख जनपदाधिकारिण संयोजकत्वे स्थितया जनपद मतदान स्थल मतदान केन्द्र परामर्शन समित्या श्वस्तन दिवसात् कार्यं प्रारप्स्यते इति निर्वाचनायोगस्य प्रवक्ता राजकुमार श्रेष्ठ अबोधयत्। नवनवत्यधिकद्विशततम्यः पृथ्वी जयन्त्यः राष्ट्रियैकता दिवसस्य च अवसरे आयोजिता गोर्खा धादिङ नुवाकोट जनपदेभ्यः सैनिक मुख्यालय पार्यन्तिका एकीकरण पदयात्रा गोर्खा प्रासादात् गतदिने प्रारब्धा वर्तते। पदयात्रेयं तात्कालिक्या गोर्खा सेनया विजया भियानस्य सन्दर्भे प्रयुक्तेषु पदमार्गेषु विभिन्नान् कार्यक्रमान् आयोज्य अग्रे प्रवर्धते इति सैनिक जनसम्पर्क सूचना निर्देशनालयो ज्ञापयति। पदयात्रायाः क्रमे सांस्कृतिक कार्यक्रमः अन्तरक्रिया प्रवचनं च विधीयन्ते। कार्यक्रमेऽस्मिन् नेपाली सेनायाः स्थानीय जनतायाश्च सहभागिता स्थिति सेनया ज्ञापितं वर्तते। नेपालोद्योग वाणिज्य महासंघेन व्यवसायीभिः अर्पणीयस्य करविवरणस्य अवधिं कोषागारस्य मूलधन वृद्धिधनयोः अर्पणस्य अवधिं च वर्धापयितुं सर्वकारः अभियाचितोऽस्ति इति समाचारः।